शातरं मुण्डणाम् यन्य कस्यचिदाख्यातं तन्मे ब्रूहि पितामह अस्ति भूयात्तमं विप्रे सर्वभूतोपकारकम् देव्यास्तु कवचम् तृतीयं चन्द्रघण्टेति कुष्माण्डेति चतुर्थकं पञ्चमं स्कन्धमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमम्
कालरात्रीति महागौरीति चाष्टमम्